एवं आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको निक्षितः शास्त्री। आदौ मुख्यवार्ताः। भारतेन मार्शल द्वीपैः सह चतस्त्रीणां सामुदायिक विकास परियोजनानां क्रियान्वयनार्थं ज्ञापनपत्रे हस्ताक्षराणि विहितानि। श्री केपी शर्मा ओली वर्यः चतुर्थवारं नेपालस्य प्रधानमन्त्रित्वेन शपथवचनं स्वीकृतवान्। गृहमन्त्रिणा अमितशाहेन अद्य असम गुजरातोत्तर प्रदेश राज्याणां मुख्यमन्त्रिभिः सह संवादः कृतः। सहैव राज्येषु जलप्लवस्य स्थितिः समीक्षिता। अपि च मियामी नगरस्य हार्ड रॉक क्रीडांगणे कोलम्बिया देशं 1-0 इत्यन्तरालेन पराजित्य अर्जेंटीना देशः क्रमशः द्वितीयं कोपा अमेरिका चैंपियनशिप इति प्रतियोगितां जितवान्। अथ वार्ताः विस्तरेण। विदेशमन्त्री डॉ एस जयशंकरः अवदत् यत् भारतस्य मार्शल द्वीपस्य च मैत्रीपूर्ण द्विपक्षीय सम्बन्धस्य दीर्घः इतिहासः वर्तते, यस्य विस्तारः वर्षैः नितरां जायते। मार्शल द्वीपेषु चतस्त्रीणां सामुदायिक विकास परियोजनानां क्रियान्वयनार्थं ज्ञापनपत्रे हस्ताक्षरस्य अवसरे भाषमाणः डॉ जयशंकरः अवदत् यत् प्रशान्तसागरे ये द्वीपाः सन्ति ते लघुद्वीपाः न अपितु बृहत्समुद्रदेशाः सन्ति। सः अवदत् यत् प्रशान्तद्वीपानां स्थायि विकासस्य अन्वेषणे तेषां समर्थनं भारतं दायित्वं मन्यन्ते। सः एवमपि अवदत् यत् ऋतुपरिवर्तनं प्राकृतिकविपदः दरिद्रतानिवारणं स्वास्थ्यसेवा च सामान्यानि आह्वानानि सन्ति, येषां समाधानं भारतेन मार्शलद्वीपेन च मिलित्वा करणीयम्। अस्मिन् विषये प्रशान्तद्वीपानां सहयोगित्वं भारतस्य सौभाग्यं वर्तते इति तेन प्रतिपादितम्। श्री केपी शर्मा ओली वर्यः चतुर्थवारं नेपालस्य प्रधानमन्त्रित्वेन शपथवचनं स्वीकृतवान्। राष्ट्रपतिना रामचन्द्र पौडेल वर्येण अद्य राष्ट्रपति भवनस्य मुख्यभवने शीतल निवासे श्री ओली वर्याय पदस्य गोपनीयतायाश्च शपथवचनं ग्राहितम्। सहैव राष्ट्रपतिना नवनियुक्तेभ्यः 21 मन्त्रिभ्यः अपि पद गोपनीयतयोः शपथवचनं ग्राहितम्। ओलीवर्यस्य नेतृत्वभूते मन्त्रिमण्डले अधुना NCUML, जनता समाजवादी पार्टी, लोकतान्त्रिक समाजवादी पार्टी इत्येतेषां दलानाम् अपि मन्त्रिणः सम्मिलिताः सन्ति। नेपाल कांग्रेस दलस्य प्रकाश मानसिंहः, CPNUML दलस्य विष्णुप्रसाद पौडेलश्च उपप्रधानमन्त्रिणौ चितौ। गृहमन्त्रिणा अमितशाहेन अद्य असम गुजरात उत्तरप्रदेश राज्याणां मुख्यमन्त्रिभिः सह संवादः कृतः। सहैव राज्येषु जलप्लवस्य स्थितिः अपि समीक्षिता। श्रीशाहेन एतेषु राज्येषु जलस्तरवृद्धिविषयिकी सूचना गृहीता। सहैव तेन राज्येभ्यः यथासम्भवं साहाय्यम् उपलब्धं कारयितुम् आश्वासनम् अपि प्रदत्तम्। भगवतः जगन्नाथस्य, तस्याग्रजस्य, भगवतः बलभद्रस्य, तस्य भगिन्याः भगवत्याः सुभद्रायाश्च, भगवतः सुदर्शनस्य च विश्वप्रसिद्ध बहुधा यात्रोत्सवः अद्य ओडिशायाः पवित्रनगरे पुर्यां समायोज्यते। अद्य प्रातरारभ्य एव लक्षाधिकाः श्रद्धालवः भगवतः आशीर्वचांसि समवाप्तुं बहुधा यात्रां च द्रष्टुं पुर्यां समागताः सन्ति। अवधेयं यत् इयं यात्रा भगवतः जगन्नाथस्य, तस्य भ्रातृभगिनीनां च गुण्डिचा देवालयात् श्रीमन्दिरं प्रति प्रत्यागमनस्य प्रतीकत्वेन आयोज्यते। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। संयुक्त राज्य अमेरिकायाः राष्ट्रपतिना जो बाइडेन इत्यनेन उक्तं यत् तस्य रिपब्लिकन दलस्य प्रतिद्वन्द्विना डोनाल्ड ट्रम्प इत्यनेन च अमेरिकायाः नागरिकाः संघटिताः भूत्वा राजनीतिक विभाजनोन्मूलनं कर्तुं समाहूताः। श्री ट्रम्पः अकथयत् यत् रिपब्लिकन राष्ट्रिय सम्मेलने तस्य आगामि भाषणं राष्ट्रपति बाइडेनस्य आलोचनां विहाय राष्ट्रिय ऐक्यम् इति विषये केन्द्रितं भविष्यति। राष्ट्रपतिना जो बाइडेनेन पेंसिल्वेनियायाः जनसभायां सुरक्षोपायानां एकं स्वतंत्र मूल्यांकनम् अपि समारब्धम्, यत्र पूर्वराष्ट्रपतिनः डोनाल्ड ट्रम्प इत्यस्य हत्याप्रयासः कृतः आसीत्। श्रीट्रम्पः गुरुवासरे रिपब्लिकन पार्टी इति दलस्य राष्ट्रिय सम्मेलने भाषमाणः आसीत्। ऋतु विज्ञान विभागेन अद्य उत्तराखण्डस्य पूर्वीयोत्तर प्रदेशस्य पूर्वीय राजस्थानस्य च विभिन्न क्षेत्रेषु वृष्टेः संभावना प्रकटिता। ऋतु विज्ञान विभागेन अद्य हरियाणा उत्तर प्रदेश राज्ययोः दिल्ली नगरस्य च केषुचित् क्षेत्रेषु झंझावातेन सह मध्यम वृष्टेः अनुमानं कृतमस्ति। कौशल विकास उद्यम मंत्री श्री जयंत चौधरी इत्यनेन उक्तं यत् कौशल भारत योजनायाः अंतर्गतं अद्य प्रभृति एक कोटिभ्यः षट्चत्वारिंशत् लक्षोत्तरैक कोटितोपि अधिकाः जनाः कौशल प्रशिक्षणं प्राप्तवन्तः। अद्य नवदिल्ली नगरे विश्व युव कौशल दिवसस्य कार्यक्रमं संबोधयन् श्री चौधरी अवदत् यत् भारतस्य कौशल विकासस्य उद्यमशीलतायाश्च क्षेत्रे इयं काचित् विशेष यात्रा अस्ति, यतो हि दशवर्षाणि पूर्वमेव पृथक मन्त्रालयस्य अस्य संघटनं जातमासीत्। सः अवदत् विगत दशवर्षैः प्राप्ताभ्यः उपलब्धिभ्यः प्राप्तानुभवेन मन्त्रालयः इतोपि अधिकाः समावेशी योजनाः क्रियान्विताः करिष्यति, याभिः सप्तचत्वारिंशदुत्तर द्विसहस्रतमं वर्षं यावत् अयं विकसित राष्ट्ररूपेण भारतस्य यात्रायां योगदानं दातुं शक्नुयादिति। तेन उक्तं यत् कौशल भारत योजनायाः अन्तर्गतं अद्य प्रभृति षट्चत्वारिंशत् लक्षोत्तरैक कोटितोपि अधिकाः जनाः कौशल प्रशिक्षणं प्राप्तवन्तः सन्ति। अस्मिन् अवसरे श्री चौधरी कौशल विकास प्रशिक्षणं कृतवद्भिः युवभिः सह संवादं कृतवान्, प्रशिक्षकान् अपि अभिनन्दितवान् इति। भारतीय कृषि संशोधन परिषदः द्विदिनात्मकः स्थापना प्रौद्योगिकी दिवसः अद्य नवदिल्ली नगरे समारब्धः। अद्य प्रथमदिने विद्यालयस्य छात्राः कृषि विषये तत्सम्बद्ध प्रौद्योगिकी विषये च ज्ञानं प्राप्तुम् आमन्त्रिताः आसन्। अस्मिन् अवसरे कृषि नवीनता प्रौद्योगिकीनाम् आधारेण आयोजिता प्रदर्शनी अपि छात्राः दृष्टवन्तः। केन्द्रीय कृषि तथा कृषक कल्याण मंत्री शिवराज सिंह चौहान ह्यः कृषि कृषक कल्याण राज्यमंत्री भगीरथ चौधरी एवं च रामनाथ ठाकुरस्य उपस्थित्यां स्थापना दिवसस्य आयोजनम् आधिकारिकरूपेण श्वः उद्घाटयिष्यते। अद्य एकस्मिन् पत्रकार सम्मेलने सचिवः DGICAR इत्यस्य हिमांशुः पाठक च परिषदः शतं दिवसाः शतं प्रकाराः शतं दिवसाः शतं प्रौद्योगिक्यः एकः वैज्ञानिकः एकः उत्पादः इति विषये चर्चां कृतवानिति। लद्दाखनगरे ह्यः द्रासनगरस्य कारगिल युद्धस्मारकस्थाने संसत्कार्याणाम् अल्पसंख्यक कार्याणां च केन्द्रीय मन्त्री किरण रिजिजुः ऑपरेशन विजय इत्यस्य वीर सैनिकेभ्यः हार्दिक श्रद्धाञ्जलिम् अयच्छत्। अस्मिन्नवसरे श्रीरिजिजुः नवनवत्युत्तर नवदशशततमे वर्षे कारगिल युद्धे भारतीय सैनिकैः कृतस्य त्यागस्य स्मरणं कृतवान्, सममेव सेना कर्मचारिभिः सह संवादं कृतवान्, तेषां समर्पणस्य सेवायाः च गहन प्रशंसां कृतज्ञतां च तेषां प्रति प्रकटितवान् इति। एतेषां राष्ट्रनायकानां सम्मानस्य महत्वं बोधयन् श्रीरिजिजुः अवदत् यत् तेषां दत्तैः प्राणैः राष्ट्रं शान्तिपूर्वकं विद्यते। अद्य दक्षिण गुजरातस्य सूरत भरूच नर्मदा जनपदानां केषुचित् भागेषु भीषण वृष्टिरभवत्। विगते होराद्वये सूरतस्य उमरपाड़ा क्षेत्रे 10 परिमिता सर्वाधिका वृष्टिः संजाता। गरुडेश्वर टीकलवाड़ा नटरंग क्षेत्रेष्वपि प्रभातकाले अतिवृष्टिरभवत्। राज्ये अधुना पर्यन्तम् अनुमानितायाः वृष्ट्याः अधिका वृष्टिः संजाता। अद्य प्रातःकाले मियामी नगरस्य हार्डरॉक क्रीडांगणे कोलंबिया देशं 1-0 इत्यन्तरालेन पराजित्य अर्जेंटीना देशः क्रमशः द्वितीयं कोपा अमेरिका चैंपियनशिप इति प्रतियोगिताम् जितवान् इति वार्ताः।